ये संता संता चिता ति सरणा सरणा इत्थलोकान्तरेवान् भुम्मा भुम्मा चन्देवान् गुणखनखनप्यवता सम्बकालां एते आयन्तु देवा वरकनकमये मेरुराचे वसन्तो सन्तो सन्तो सहेतुं मुनिवरवचनं सोतुमगं समगं सब्बेषु चक्रवालेषु यक्खदेवाच ब्रह्मणो यं अम्वेहि कतं पुण्यं सप्पसम्पत्ति साधकं सब्बेतं अनुमोदितवान् समग्गसासनेरतान् पमाण्डरहिता हन्तु अरखासु विशेषतो सनस च लोकस उथिं भवतु सफलं सनम्पि च लोकञ्च देवरखन्तु सफलं सथिं हन्तु सुखी सब्बे परिवारे हि अतनो अनिगासु मना हन्तु सह सब्बे हि मातिभि यञ्च द्वादशवसानि चिन्तयिं सुसदेवकान् चिरत्सं चिन्तयन्तापि नेवयानिं सुमङ्गलं चकवालसहसेषु दशसु येन ततकं कालं कोलाहलं यतं यावब्रह्मनिवेशनं यं लोकनाथो देशेषु सर्वपापविनाशनं यं श्रुत्वा सर्वदुःखैः मुच्यन्ता सङ्गीया नरा एव मान्दिकुनुपेतं मङ्गलन्तं भनामसे